येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः तमश्चाज्ञानजम् भिन्नम् तस्मै पाणिनये नमः ॐ श्रीगुरुभ्यो नमः हरिः ओम् सर्वेभ्यः नमः
धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे पूर्वस्मिन् वर्गे वयम् एकां कथां पठितवन्तः अद्य तत्र नूतनविषयः भवति तत्र प्रवर्तमानः नूतनविषयः अस्ति तत्र आत्मनेपदिनः दातवः ऋट् लकारः नाम भविष्यत्कालरूपाणि इति तत्र पुटसङ्ख्या अस्ति पञ्चाशीतितमे पुटे तत्र त्रयोदशः अध्यायः अस्ति सागरतीरविहारः इति नरेश महोदय महोदय नमस्कारः
नमस्कारः महोदय
नमस्कारः महोदय पुटसङ्ख्या अस्ति महोदय पञ्चाशीतिः
आं महोदय
अस्तु तत्र शोभा भगिनी आरम्भं करोति वा भगिनी
आं महोदय सागरतीरविहारः आत्मनेपदिनः धातवः लृट् लकारः विनीतः श्वः अहं किं करिष्यामि इति चिन्तयन् अस्ति तस्य वाक्यानि उच्चैः पठत तत्र लृट् लकारस्य आत्मनेपदी धातवानां विषये अपि च तत्र विनीतः इति बालकः तस्य श्वः किं करणीयम् इत्यस्य विचारे वाक्यानि दत्तानि अस्तु अग्रे तत्र श्वः रविवासरः सायम् अहं सागरतीरं गमिष्यामि तत्र गोपालः मां प्रतीक्षिष्यते सायङ्काले सागरशोभा नितरां वर्धिष्यते बहवः जनाः तत्र वर्तिष्यन्ते सर्वेपि सागरसौन्दर्यम् आस्वदिष्यन्ते
समीचीनं भगिनि धन्यवादः अस्तु अग्रे ललिता भगिनि
वदामि महोदय आकाशे चन्द्रः प्रकाशिष्यते नक्षत्राणि द्योतिष्यन्ते तदा सूर्यः सागरे गाहिष्यते सः रक्तवर्णेन शोभिष्यते सः पक्वं फलम् इव भासिष्यते आवां
भगिनी न श्रूयते श्रूयते वा
श्रूयते
न श्रूयते ललिता भगिनी न श्रूयते भगिनी ललिता भगिनी न श्रूयते भगिनी
नमस्ते महोदय सुप्रभातम्
आं वंशी सुधा भगिनी नमस्कारः सुप्रभातं भगिनी
महोदय अहं किञ्चित् समयात् अनन्तरं वक्तुं
शक्नोमि ललिता भगिनी न श्रूयते भगिनि अस्तु तर्हि तत्र नरेश महोदय अग्रे पठति वा
अहं महोदय सः पक्वं फलम् इव भासिष्यते आवां तं सानन्दं लोकिष्यावहे सर्वे जनाः अपि लोकिष्यन्ते क्रीडारताः बालाः तत्र वर्तिष्यन्ते तेषां चेष्टाः वीक्षिष्यावहे तैः साकं भृशं मोदिष्यावहे रात्रिं यावत् तत्रैव रंस्यावहे
हा समीचीनं महोदय अस्तु पूर्वं तत्र भवती किन्तु इदानीं समीचीनमस्ति भगिनि अस्तु तत्र मधुमहोदय नमस्कारः
नमस्कारः महोदय
तत्र पुटसङ्ख्या अस्ति 85
अस्तु महोदय किञ्चित् पञ्चदश निमेषानन्तरं महोदय समीपे नास्ति
किन्तु पुटसङ्ख्या तु 85
नमस्कारः
अस्तु
अस्तु वेदा भगिनी नमस्कार भगिनी पुटसङ्ख्या अस्ति 85
केवलं नोमि अद्य
अस्तु अस्तु भगिनी अस्तु अस्तु चिन्ता मास्तु पुटसङ्ख्या 85 अस्तु तर्हि अतः तत्र अद्यतनमूलविषयः कः इत्युक्ते तत्र लृट् लकारः आत्मनेपदि धातून् धातूनां तत्र लृट् लकारः तत्र विनीतः इति बालकः स चिन्तयति श्वः अहं किं करिष्यामि इति अस्तु तर्हि तत्र उषा भगिनी तत्र प्रथमपरिच्छेदं तत्र वाक्यं स्वीकृत्य किञ्चित् वदतु भगिनि श्वः रविवासरः इति अस्ति
आं महोदय श्वः रविवासरः इत्युक्ते अद्य शनिवासरः श्वः रविवासरः यः श्व अद्य रवि यः शुक्रवासरः इति वक्तुं शक्नुमः सायम् अहं सागरतीरं गमिष्यामि प्रथमं विनितः इति एकः बालकः अस्ति सः वदति श्वः रविवासरः सायम् अहं सागरतीरं गमिष्यामि इति सः चिन्तयति तत्र गोपालः मां प्रतीक्ष्यते तत्र
अहं सायं सागरतीरं गमिष्यामि तत्र श्वः सायं खलु अद्य सायं न
श्वः सायं
सागरतीरं गमिष्यामि
तत्र गोपालः मां प्रतीक्ष्यते गोपालः तत्र
प्रतीक्ष्यते
प्रतीक्ष्यते
न न प्रतीक्ष्यते न
प्रतीक्ष्यते
प्रतीक्षिष्यते
प्रतीक्षां
नाम तत्र सः आगच्छति वा न इति पश्यन् भवति सः नाम ईक्षते नाम किम् अवलोकते पश्यते पश्यति खलु इति किन्तु प्रतीक्षते इत्युक्ते किम् प्रतीक्षते नाम
प्रतीक्षां करोति
तत्र एक्स्पेक्ट् इति खलु किन्तु तत् तदपि नेत्रेण एव भवति खलु नेत्रेण वयं पश्यामः तत्र मित्रम् आगच्छति वा न किमर्थम् एतावत् न आगतवती अथवा न आगतवान् इति अतः तत्र ईक्षा इति तत्र यत्र यत्र ईक्षा क्षा इति अस्ति तत्र नेत्रसम्बद्धपदं तत्र प्रतीक्षिष्यते गोपालः मां तत्र माम् इति विभक्ति का
माम् कर्मपदं द्वितीयविभक्ति
कं प्रतीक्षिष्यते मां
प्रतीक्षिष्यते
अस्तु अग्रे
सायंकाले सागरशोभा नितरां वर्धिष्यते सायंकाले इत्युक्ते सायंकाले सागरशोभा नितरां वर्धिष्यते नितराम् इत्युक्ते सर्वदा वर्धिष्यते सागरस्य शोभा सायंकाले
तत्र सागरस्य शोभा सर्वदा भवति किन्तु सायंकाले किं भवति आधिक्येन अस्ति शोभा आधिक्येन सागरस्य शोभा आधिक्येन अस्ति अतः तत्र
सूर्यास्तमसमये इति वक्तुं शक्नुमः
तत्र वर्धिता शोभा सागर तत्र सायङ्कालसमये सागरस्य शोभा वर्धिता भवति वर्धिता भवति नितरां वर्धिता भवति अथवा नितरां वर्धिष्यते तस्मिन् समये शोभायाः वर्धनं भवति अग्रे
बहवः जनाः तत्र वर्तिष्यन्ते
तत्र इदानीं तत्र लट् लकारे वदतु तत्र बहवः जनाः तत्र
बहवः
जनाः
बहुवचनं तत्र वर्तिष्यन्ते
तत्तु इदानीं तत्र लृट् लकारः लट् लकाररूपं वदतु
वर्धिष्यन्ते
न न लट् लकाररूपं वदतु
लट् लकार वर्तते न महोदय वर्तते वर्तेते वर्तन्ते
अतः बहवः जनाः
तत्र वर्तन्ते
किन्तु तत् लट् लकारः किन्तु एषः तु तत्र श्वः किं भविष्यति श्वः सायङ्काले किं भविष्यति इति चिन्तयन् अस्ति अतः सः किं वदति वर्तिष्यन्ते इति खलु?
आम् महोदय.
अस्तु, समीचीनं.
कल्पना
कल्पनां कुर्वन् अस्ति, समीचीनम्. अग्रे.
सर्वेपि सागरसौन्दर्यम् आस्वदिष्यन्ते. सर्वे अपि सागरसौन्दर्यं, सागरस्य सौन्दर्यम् आस्वादिष्यन्ते.
आस्वदिष्यन्ते,
आस्वदिष्यन्ते इत्युक्ते आनन्दम्
तस्य तत्र आस्वदनम् इति तत्र कुर्वन्ति. तत्र सागरसौन्दर्यं कथं सुन्दरम् अस्ति इति तत्र चिन्तयन्तः भवन्ति ते सर्वे इति.
सर्वे
अपि सागरसौन्दर्यं, सर्वे जनाः
सागरसौन्दर्यम्
तत्र सागरसौन्दर्यस्य आस्वदनम् आस्वदिष्यन्ते नाम आस्वदनं नाम किं, कोऽपि वदति वा आस्वदनं नाम?
आनन्दम् अनुभू
तत्र अनुभवन्ति,
आनन्दम् अनुभवन्ति न महोदय?
तत्र आस्वदनं नाम टेस्ट् इति अपि भवितुमर्हति इति मन्ये. तत्र तस्य अनुभवं, तत्र अनुभवं भवति सौन्दर्यस्य अनुभवं ते कुर्वन्ति अथवा अनुभवन्ति इति. समीचीनम्. अस्तु, अग्रे शोभा भगिनी.
आम् महोदय. महोदय, तत्र आस्वादनम् आहारस्य विषये अपि भवति किल?
सत्यं सत्यम्. अतः तत्र आस्वादनं नाम टेस्ट् इति खलु?
आम्
आम्
तत्र आकाशे आकाशे चन्द्रः प्रकाशिष्यते. नक्षत्राणि द्योतिष्यन्ते.
लट् लकारे वदतु, रूपं किं भवति?
द्योतते. द्योतते इत्यस्य तत्र द्युत् धातुः. द्योतते, द्योतेते, द्योतन्ते.
अतः नक्षत्राणि,
नक्षत्राणि द्योतन्ते इति भवति.
द्योतन्ते,
द्योतन्ते. अपि च प्रकाशिष्यते इति प्रकाशते इति भवति. तत्र चन्द्रः एकवचने प्रकाशते एव लट्लकारे चन्द्रः प्रकाशते.
लट्लकारे प्रकाशिष्यते.
आम्.
नक्षत्राणि द्योतते, द्योतन्ते. नक्षत्राणि द्योतिष्यन्ते,
द्योतिष्यन्ते.
समीचीनं भगिनि. अग्रे.
आम्. तदा सूर्यः सागरे गाहिष्यते. तत्र सागरे गाहिष्यते इत्युक्ते तत्र सेटिङ्ग् इति.
तत्र गाहते इति प्रायशः
गाहते. गाहते इति गार्तः किं महोदय? तत्र
सेटिङ्ग् इति एव, तत्र समुद्रे गच्छति इति एव.
किमपि अन्यत् नास्ति वा?
अपि भवितुमर्हति भगिनि.
अस्तु, तत्र गाहते. तदा सूर्यः सागरे गाहते इति
तत्र
लट्लकारे.
तत्र सेटिङ्ग् इति नाम तत्र जलम् अस्ति, जले अन्ते गच्छति इति. तत्र नद्यां, तत्र नद्यां गाहते इति नाम तत्र बालकः तत्र तीरे अस्ति किन्तु सः अन्ते गच्छति, तत्र नद्याम् अन्ते गच्छति, तत्र नद्यां गाहते नाम तत्र प्लञ्ज् इति.
अस्तु महोदय. आम्.
सेट् इति.
अनन्तरं सः रक्तवर्णेन शोभिष्यते. सः सूर्यः रक्तवर्णेन शोभिष्यते. तत्र शोभते इति भवति लट्लकारे, अतः सः सूर्यः रक्तवर्णेन शोभते इति तत्र शोभिष्यते इति भवति. सः पक्वं फलम् इव भासिष्यते. यदा सूर्यः गाहन् अस्ति तदा एकं पक्वफलम् इव दृश्यते. भासते इत्युक्ते तत्रापि द्योतते इति अर्थे एव भासते इति.
द्योतते इत्युक्ते तत्र
दीप्तौ इति
शैनिङ्ग्
शैनिङ्ग्
ग्लास् इति अपि तत्र शैन् इति एव अस्ति नाम तत्र इल्युमिनेट् इति तत्र अतः एव तत्र भास्करः इति सूर्यस्य अतः तत्र भासिष्यते हा तत्र सः सूर्यः पक्वं फलम् इव
भासिष्यते भासते इति लट्लकारे
हा समीचीनं भगिनि अग्रे तत्र ललिता भगिनि अग्रे
श्रूयते वा महोदय
श्रूयते भगिनि
आवां तं सानन्दं लोकिष्यावहे
तत्र आवां तम् इत्युक्ते कम्
सूर्यास्तमनं
सूर्यं सूर्यमेव तत्र यतोहि तत्र पूर्वं सः इति आसीत् सः नाम सूर्यः सूर्यं सानन्दं सानन्दं नाम
सूर्यं सानन्दम् इत्युक्ते आनन्देन
आनन्देन
स आनन्दं सानन्दं
सानन्दं
लोकिष्यावहे इत्युक्ते दृश्यते
पश्यामः
आनन्दं
पश्यामः आवां पश्यामः लोकिष्यावहे तत्र लट्लकारे किमस्ति लट्लकारे
लट्लकारे लोकिष्यते लोकिष्यन्ते
किन्तु अहं
अहं तं सा अहं लोकिष्ये
न लट्लकारे
अहं तं
सा लट्लकारे एव वदतु
लट्लकारे
लोकते लोकेते
लोकिष्यामि अहं लोकिष्यामि
न भगिनि लट्लकार मास्तु लट्लकार एव वदतु लोकते लोकेते
लट्लकारे लोकिष्यते
लट्लकारे भगिनि
लोकते लोकते लोकेते लोकन्ते
तदनन्तरं
लोके
लोकसे
लोकसे लोकसे लोकते
लोकेते
लोकेते
लोकत्वे तदनन्तरं लोके
लोके लोकावहे लोकामहे
आवां लोकामहे लट्लकारे
आवां लोकामहे
यत्र तु तत्र लट्लकारः अतः लोकिश् यावहे आवां वयं तत्र क्षम्यतां तत्र आवां लोकिश् यावहे लोकावहे वयं लोकामहे लोकिष्यामहे
वयं
अग्रे सर्वे
सर्वे जनाः अपि लोकिष्यन्ते
सर्वे जनाः अपि आवामपि लोकिष्यावहे सर्वे जनाः अपि
जनाः
लोकिष्यन्ते किं लोकिष्यन्ते अथवा कं लोकिष्यन्ते
सूर्यं
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 सूर्यं लोकिष्यन्ते सूर्यं कर्मपदं समीचीनं अग्रे
क्रीडारताः बालाः तत्र वर्तिष्यन्ते
नाम
ये बालाः
तत्र
तत्र क्रीडन्ति
वर्तिष्यन्ते इति क्रियापदं तत्र वर्तते इति सकर्मकः वा अकर्मकः वा वर्तते इति सकर्मक
वर्तते अकर्मक
अकर्मक अतः तत्र क्रिया कर्मपदं नास्ति तत्र कर्तृपदं किम् अस्ति
अकर्मकः
बालाः
किं महोदय
कर्तृपदं किम् अस्ति
ये बालाः कर्तृपदं बालाः क्रीडारताः विशेषणम् अस्ति
समीचीनं तत्र कीदृशबालाः तत्र क्रीडारताः बालाः
क्रीडिताः बालाः
क्रीडारताः नाम क्रीडे
क्रीडे मग्न मग्ने
क्रीडे मग्नाः बालाः क्रीडे मग्नाः बालाः तत्र वर्तिष्यन्ते तत्र भवन्ति भविष्यन्ति के क्रीडारताः बालाः तत्र क्रीडन्तः बालाः इदानीम् अग्रे ते तेषां
तेषां चेष्टाः वीक्षिष्यावहे.
हा तेषाम् इत्युक्ते केषां
वीक्षिष्यावे ईक्ष ईक्ष समानपदं शिरसि ईक्षिष्यावहे इत्युक्ते ईशावहे ईक्षिष्यावहे समानम् अस्ति अर्थः.
सत्यं भगिनि तत्र तेषाम् इति अस्ति तेषां नाम
बालानां चेष्टाः तेषाम् इत्युक्ते बालानां चेष्टाः.
समीचीनं समीचीनम्. इदानीं तत्र विशेषणम् अस्ति खलु क्रीडारताः इति तस्यापि
क्रीडारताः बालाः.
किन्तु तस्य
क्रीडारतानां बालानां चेष्टाः चेष्टाः अहं
पश्ये. तत्र कर्तृपदं किम् अस्ति?
बालाः क्रीडारताः बालाः.
किन्तु अग्रिमे वाक्ये तेषां चेष्टाः वीक्षिष्यावहे इति कर्तृपदं किम् अस्ति तत्र?
कर्तृपदं तेषां बालानां कर्तृपदमस्ति.
तेषाम् इति तु षष्टिविभक्ति खलु भगिनि. अत्र वीक्षिष्यावहे इति अस्ति. वीक्षिष्यावहे इति अस्ति चेत् तत्र
वीक्षिष्यावहे
अतः तत्र आवाम् इति कर्तृपदम्. अत्र कर्मपदम् अस्ति वा? चेष्टाः चेष्टा चेष्टा इति लता एवत् खलु चेष्टा आकारन्तु स्त्रीलिङ्गपदं
चेष्टा स्त्रीलिङ्गपदं.
लता लते लताः लतां लते
लताः
लताः. अतः द्वितीयविभक्ति वचने अपि लताः एव चेष्टाः एव भवति. अतः तत्र चेष्टाः इति कर्मपदम्. क्रीडारतानां बालानां चेष्टाः आवां वीक्षिष्यावहे. अग्रे तैः
साकं वृषं मोदिष्यावहे.
तत्र साकं नाम तैः सह. तैः सह इत्युक्ते कैः सह?
बालैः
बालैः सह
बालैः
सह क्रीडारतैः
रतैः बालैः
सह
सह वृषम् इत्युक्ते
बहु
बृहत्
बहु बहु वृषम्
अधिकम्
अधिकम्
अधिकं मोदिष्यावहे आवां मोदिष्यावहे. अत्र अपि आवाम् इति अस्ति.
अग्रे
रात्रिं यावत् तत्रैव रंस्यावहे. रात्रिम् इत्युक्ते सप्तमीविभक्तिः अस्ति तत्र.
रात्रिपर्यन्तं
रात्रिपर्यन्तं तत्रैव
तत्र
रात्रिं यावत् हो या रात्र्याम् अस्ति न सप्तमी रात्र्यां
रात्रिम् इति तत्र रात्रिं
यावत् द्वितीयाभक्ति तत्र एव रंस्यावहे इत्युक्ते मोदिष्यावहे एञ्जाय्
तत्र रमते इति धातोः तत्र
रमते
रमते रंस्यावहे तत्र आवां रंस्यावहे इति समीचीनम्. अस्तु उत्तमम्. अस्तु तर्हि इदानीं तत्र कथायाः विषये कोऽपि प्रश्नः अस्ति वा? तत्र सर्वम् अवगतं वा अस्मिन् पाठे? अतः तत्र यदि तत्र वाक्ये किं किम् अस्ति इति ज्ञातवन्तः तत्र अग्रिमविषयं किम् इति तत्र किम् इत्युक्ते तत्र रूपाणि कथं भवति इति तत्र तेषां परिशीलनं रूपाणां परिशीलनं कर्तुं शक्नुमः. तत्र आत्मनेपदी धातूनां तत्र लृट् लकारः इति. अतः तत्र तत्र नरेश् महोदय तत्र अधोभागे तत्र लट् लकारः लृट् लकारः इति अस्ति एकवारं पश्यति वा महोदय? तत्र एतत् कुर्मः महोदय, क्षम्यतां, तत्र अग्रिमे पुटे तत्र कोष्टकमस्ति, तत्र वन् धातोः रूपाणि दत्तानि सन्ति, तदेकवारं पठ्यति पठति वा?
आं महोदय. आत्मनेपदीनां धातूनां लट् लकारे रूपाणि एवं भवन्ति. वन् धातु वन्दिष्यते, वन्दिष्येते, चन्ते, वन्दिष्यसे, वन्दिष्येथे, वन्दिष्यध्वे, वन्दिष्ये, वन्दिष्यावहे, वन्दिष्यामहे.
हा, इदानीं तत्र लट् लकाररूपाणाम् अपि तत्र लृट् लकाररूपाणां तयोः मध्ये तत्र कः भेदः? तत्र वन्दते, वन्दते, वन्देते,
वन्दते, वन्देते, वन्दन्ते, वन्दसे, वन्देथे, वन्दद्वे, वन्दे, वन्दावहे, वन्दामहे. अत्र तु भेदः अस्ति इष्य.
हा, इष्य इति मध्ये आगच्छति. समीचीनं महोदय. अपि तथा तत्र केवलं तत्र इष्य इति स्थापनीयमस्ति तावदेव खलु मध्ये. तत् कुर्मश्चेत् सर्वं समानमेव. तत्र यदि तत्र लट् लकाररूपाणां ज्ञानम् अस्ति, लृट् लकारस्य रूपाणि अपि तत्र वयं कर्तुं शक्नुमः. अतः तत्र इदानीं तत्र वर्धते इति अस्ति, वर्धते, वर्धिष्यते इति अस्ति. तत्र वर्धिष्यते इति पदस्य नवरूपाणि वदतु महोदय, लृट् लकारे.
वर्धिष्यते, वर्धिष्येते, वर्धिष्यन्ते, वर्धिष्यसे, वर्धिष्येथे, वर्धिष्यध्वे, वर्धिष्ये, वर्धिष्यावहे, वर्धिष्यामहे.
हा, समीचीनं महोदय. अस्तु, इदानीं शोभा भगिनी इदानीं तत्र वर्तते इति करोति वा?
आं महोदय. वर्धते अस्ति चेत्
वर्तते इति कृतं, वर्तते केवलं
वर्तते. आम्, वर्तते, वर्तते इत्यस्य लृट् लकाररूपाणि. वर्तिष्यते, वर्तिष्येते, वर्तिष्यन्ते, वर्तिष्यसे, वर्तिष्येथे, वर्तिष्यध्वे, वर्तिष्ये, वर्तिष्यावहे, वर्तिष्यामहे.
हा, इति इदानीं तत्र सा इति अपि स्थापयतु. सा, ते, ताः इति अपि पुनः त्वं, युवां, यूयम्, अहम्, आवां, वयम् इति.
आं महोदय. सा वर्तिष्यते, सा, ते, ताः, ते वर्तिष्येते, ताः वर्तिष्यन्ते, त्वं वर्तिष्यसे, युवां वर्तिष्येथे, यूयं वर्तिष्यध्वे, अहं वर्तिष्ये, आवां वर्तिष्यावहे, वयं वर्तिष्यामहे.
हा, समीचीनं भगिनि. अस्तु, उत्तमम्. अस्तु, अग्रे उषा भगिनी इदानीं तत्र शोभते इति.
आं महोदय. शोभते लट् लकाररूपमस्ति. लृट् लकारे शोभिष्यते, शोभिष्येते, शोभिष्यन्ते, शोभिष्यते, शोभिष्येथे, शोभिष्यद्वे, शोभे, शोभावहे, शोभामहे.
हा, इदानीं तत्र तत्र नक्षत्रं शोभते इति स्वीकरोतु. हा,
नक्षत्रं शोभते, नक्षत्रं, नक्षत्रे शोभेते, नक्षत्राणि शोभन्ते.
त्वं
न महोदय, लट् लकार शोभ, नक्षत्रं शोभते, नक्षत्रे.
न न, लट् लकारं त्यजतु, लट्लकारं त्यजतु, केवलं लृट् लकार नवरूपाणि वदतु.
नक्षत्रं, नक्षत्रं शोभिष्यते, नक्षत्रे शोभिष्येते, नक्षत्राणि शोभिष्यन्ते.
इदानीं त्वं,
त्वं, त्वं शोभिष्यते, युवां शोभिष्येथे, वयं,
न न, यूयं, यूयं,
यूयं शोभिष्यद्वे, अहं शोभे, आवां शोभे,
अहं शोभिष्ये,
अहं शोभिष्, शोभिष्ये वा महोदय शोभिष्ये
लट् लकारे शोभे इति भवति खलु भगिनि इदानीम् इदानीं तत्र कोष्टकमस्ति खलु तत्र वन्दिष्ये इति अस्ति खलु
आं महोदय अहं शोभिष्ये आवाम् अहम् आवां शोभिष्यावहे वयं शोभिष्यामहे
हा इति समीचीनं भगिनि अस्तु अग्रे ललिता भगिनी इदानीं तत्र लोकते
महोदय हास्यार्थं वदामि तत्र शोभा भगिनी सुबन्तपदमपि अस्ति तत्र क्रियापदमपि अस्ति शोभे इति अस्ति न
पदमपि अस्ति महिला अपि अस्ति
अस्तु
अस्तु ललित भगिनि अग्रे तत्र लोकते इति लोकिष्यते
लोकिष्यते लोकिष्यते लोकिष्यते लोकिष्येते लोकिष्यन्ते लोकिष्यसे लोकिष्येते लोकिष्यध्वे लोकिष्ये लोकिष्यावहे लोकिष्यामहे
हा समीचीनम् इदानीं तत्र कविः लोकिष्यते कविः इति स्थापयतु तत्र कविः
कविः लोकिष्यते कवी लोकिष्येते कवयः लोकिष्यन्ते त्वं लोकिष्यसे युवां लोकिष्येते यूयं लोकिष्यध्वे अहं लोकिष्ये आवां लोकिष्यावहे वयं लोकिष्यामहे
वयं लोकिष्यामहे समीचीनं भगिनि अस्तु अस्तु तर्हि इदानीम् अग्रे धन्यवादः भगिनि अस्तु अग्रे नरेश महोदय इदानीं तत्र मोदते इति अस्ति करोति वा
अहं महोदय मोदिष्यते मोदिष्येते मोदिष्यन्ते मोदिष्यसे मोदिष्येते मोदिष्यध्वे मोदिष्ये मोदिष्यावहे मोदिष्यामहे
हा इति अस्तु तत्र द्विवारं सर्वम् द्विवारं कुर्मः चेत् समीचीनं भवति इति चिन्तयामि अस्तु उषा भगिनी अग्रे तत्र इदानीं तत्र द्योतते इति
द्योतते लट्लकारे द्योतते लृट्लकारे द्योतिष्यते
द्योतिष्यते द्योतिष्यते
द्योतिष्यते ज्योतिष्येते ज्योतिष्यन्ते ज्योतिष्यते ज्योतिष्येते ज्योतिष्यते ज्योतिष्ये ज्योतिष्यावहे ज्योतिष्यामहे
हा समीचीनम् इदानीं तत्र नक्षत्रम् इति स्वीकरोतु तत्र नक्षत्रमेव
महोदय
अस्तु भगिनि तत्र अस्तु दीपः
अस्तु दीपः द्योतिष्यते दीपौ द्योतिष्येते द्योतिष्येते दीपाः द्योतिष्यन्ते द्योतिष्यन्ते त्वं द्योतिष्यते युवां द्योतिष्येते यूयं ज्योतिष्यद्वे अहं ज्योतिष्ये आवां ज्योतिष्यामहे वयं ज्योतिष्यामहे
हा समीचीनं भगिनि अस्तु इदानीं तत्र शोभा भगिनि भासते इति
आं महोदय भासते इति इत्यस्य भासिष्यते इति भवति भासिष्यते भासिष्येते भासिष्यन्ते भासिष्यसे भासिष्येथे भासिष्यध्वे भासिष्ये भासिष्यावहे भासिष्यामहे
समीचीनं भगिनि इदानीं तत्र नक्षत्रम् इति करोति वा
नक्षत्रं भासिष्यते नक्षत्रं नक्षत्रे भासिष्येते नक्षत्राणि भासिष्यन्ते, त्वं भासिष्यसे, युवां भासिष्येथे, यूयं भासिष्यध्वे, अहं भासिष्ये, आवां भासिष्यावहे, वयं भासिष्यामहे।
हा समीचीनं भगिनि, अत्र एकं रूपं तत्र भासते इति तस्य भासिष्यते इति ध्यानमश्चेत् तत्र अन्य अष्टरूपाणि जानीमः तत्र, अतः तत्र क्लेशः नास्ति। अस्तु ललिता भगिनी, इदानीं तत्र अग्रे तत्र ईक्षते, अस्तु तत्र स्वदते इति करोति वा अथवा कम्पते इति करोतु भगिनि। हा कम्पिष्यते, ओ पुनः सा गतवती, अस्तु अस्तु तर्हि हा अतः तत्र एतावत् वयं किं कृतवन्तः तत्र सामान्यरूपं तत्र लृट्लकारः कथं भवति इति तत्र सामान्यरूपं दृष्टवन्तः। इदानीं तत्र विशिष्टरूपाणि कथं भवति इति अपि पश्यामः। तत्र उषा भगिनी, तत्र कानिचन विशिष्टरूपाणि इति अग्रिमपुटे अस्ति, तत्र पठतु भगिनि।
कानिचन विशिष्टरूपाणि, मन् मन्यते लट्लकारे, लृट्लकारे मंस्यते। नवरूपाणि वदामि वा महोदय?
न केवलं तदेव वदतु भगिनि, तत्र मंस्यते इति अस्ति, तदनन्तरं
वृत् लट्लकारे वर्तते, लृट्लकारे वर्तिष्यते, शीङ् लट्लकारे शेते, लृट्लकारे शयिष्यते, शेते शयिष्यते, क्रीण् लट्लकारे क्रीणीते, लृट्लकारे क्रेष्यते, कृण् लट्लकारे कुरुते, लृट्लकारे करिष्यते, ईक्ष लट्लकारे ईक्षते, लृट्लकारे ईक्षिष्यते, पद लट्लकारे पद्यते, लृट्लकारे पत्यते, भुज लट्लकारे भुङ्कते, लृट्लकारे भोक्ष्यते, भास लट्लकारे भासते, लृट्लकारे भासिष्यते।
हा इति भवति समीचीनं भगिनि, अस्तु। हा ललिता भगिनी, ललिता भगिनी न श्रूयते भगिनि? अस्तु अस्तु, इदानीं
इण्टर्नेट्
अस्तु भगिनि, अस्तु भगिनि, चिन्ता मास्तु भगिनि। हा इत् किन्तु भवती अत्र अस्ति इदानीं, अस्तु इदानीं तत्र पुटसङ्ख्या 86 मध्ये तत्र मन् इति धातोः रूपं मन्यते, मंस्यते इति अस्ति। इदानीं तत्र मंस्यते इति धातोः तत्र नवरूपाणि वदतु। तत्र
मम पुस्तके लभते अस्ति,
लभते अस्ति वा? हा 86, किन्तु विशिष्टरूपाणि इति किं दत्तं तत्र?
विशिष्टरूपाणि तु मन् अस्ति,
विशिष्टरूपाणि
लभते तु अभ्यासे अस्ति,
अभ्यासे अस्ति, अस्तु
लभते।
मन्स्यते इति तत्र, मन्स्यते इति तस्य नवरूपाणि वदतु एकवारं।
मन्यते लट्लकार न मन्यते, मन्येते मन्यन्ते,
लृट्लकार
लृट्लकार, ओके ओके, मन्स्यते मन्स्येते मन्स्यन्ते, मन्स्यसे मन्स्येते मन्स्यद्वे, मन्स्ये मन्स्यावहे मन्स्यामहे।
हा समीचीनं भगिनि, हा समीचीनम्, अस्तु अग्रे अस्तु। शोभा भगिनी, इदानीं तत्र क्रीण् धातोः तत्र क्रेष्यते इति तत्र तत्
आं महोदय, क्रीणीते इत्यस्य क्रेष्यते, क्रेष्यते क्रेष्येते क्रेष्यन्ते, क्रेष्यसे क्रेष्येथे क्रेष्यध्वे, क्रेष्ये क्रेष्यावहे क्रेष्यामहे।
हा इति समीचीनं भगिनि, अस्तु नरेश् महोदय, इदानीं तत्र हा तत्र भुज् धातोः भोक्ष्यते इति
भोक्ष्यते भोक्ष्येते भोक्ष्यन्ते भोक्ष्यसे भोक्ष्येते भोक्ष्यध्वे भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे
हा इति समीचीनं महोदय अस्तु अस्तु तर्हि इदानीं तत्र विशेषरूपाणां ज्ञानमपि प्राप्तम् अथ अग्रे अभ्यासं कर्तुं शक्नुमः अस्तु तर्हि तत्र उषा भगिनी तत्र प्रथम अभ्यासः तत्र आरम्भं करोति वा भगिनि लभते लप्स्यते
अभ्यासः रिक्तस्थानानि पूरयत् लभते लभते इति अस्ति पदं लृट् लकारे लप्स्यते लप्स्येते लप्स्यन्ते मध्यमपुरुषे लप्स्यते लप्स्येते लप्स्यत्वे लप्स्ये लप्स्यावहे लप्स्यामहे
हा इति समीचीनम् अस्तु अग्रे ललिता भगिनी इदानीं तत्र युध्यते इति ललिता भगिनी अस्तु शोभा भगिनी अग्रे
युध्यते इत्यस्य योत्स्यते इति भवति लृट् योत्स्यते योत्स्येते योत्स्यन्ते योत्स्यसे योत्स्येथे योत्स्यध्वे योत्स्ये योत्स्यावहे योत्स्यामहे
हा समीचीनं भगिनि अस्तु अग्रे नरेश महोदय इदानीं कम्पते इति
कम्पते लट्लकारे अस्ति लट्लकारे कम्पिष्यते पिष्येते कम्पिष्यन्ते कम्पिष्यसे कम्पिष्येथे कम्पिष्यध्वे कम्पिष्ये कम्पिष्यावहे कम्पिष्यामहे
हा इति समीचीनम् अस्तु ललिता भगिनी अग्रे तत्र जायते इति
जायते कुत्र अस्ति
अस्मिन्नेव पुटे भगिनि तत्र प्रथमाभ्यासः
जनिष्यते जनिष्यते जनिष्येते जनिष्यन्ते जनिष्यते जनिष्येते जनिष्यद्वे जनिष्ये जनिष्यावहे जनिष्यामहे
हा इति अस्ति अस्तु समीचीनम् अस्तु अपि तत्र तत्र यजते इति अस्ति तत्र उषा भगिनी यजते इति करोति वा
आं महोदय यजते यक्ष्यते इति लृट्लकारे यक्ष्यते यक्ष्येते यक्ष्यन्ते यक्ष्यसे यक्ष्येथे यक्ष्यद्वे यक्ष्ये यक्ष्ये यक्ष्यावहे यक्ष्यामहे
हा इति समीचीनं भगिनि अस्तु अस्तु इदानीं तत्र अग्रिमे पुटे यः अभ्यासः अस्ति तम् इदानीं तत्र न कुर्मः किन्तु तस्य अग्रिमे पुटे तत्र अष्टाशीतिः पुटे यतोहि तत्र पाठे किम् आसीत् इति तस्मिन् विषये तत्र प्रश्नाः सन्ति एतान् प्रश्नान् अद्य कुर्मः नो चेत् अग्रिमे वर्गे तत्र विस्मरणं तत्र स्मरणं न भवति अतः तत्र शोभा भगिनी तृतीयाभ्यासः आरम्भं करोति वा भगिनि
आं महोदय पाठाधारितानां पाठाधारितानाम् अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्ववाक्ये पूर्णवाक्येन लिखत गोपालः आधारितानां पाठः आधारः पाठस्य आधारेण इति महोदय
पाठस्य आधारेण नाम तत्र एते प्रश्नाः सन्ति तेषाम् आधारः पाठः
एव अस्ति इति गोपालः सागरतीरे किं करिष्यते तत्र गोपालः सागरतीरे करिष्यते गोपालः सागरतीरे गमिष्यति
तत्र किं
करिष्यते किं महोदय
सः किं करिष्यते
सः तत्र अस्तु तत्र सूर्यं सूर्यास्तं तत्र प्रथमपरिच्छेदे तु तस्य विषये नास्ति तत् सः किं करोति इत्युक्ते सः सूर्यास्तं सानन्दं लोकिष्यते
तत्र अनेकानि तत्र उत्तराणि कर्तुं शक्नुमः किन्तु तद् तत् समीचीनमेव अस्ति
विनीतं प्रतीक्ष्यते
ओ क्षम्यतां हा 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 उत्तरं समीचीनमस्ति नरेश महोदय हा 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 क्षम्यताम् अहमपि दोषेन उक्तं शोभा भगिनी यतोहि तत्र विनीतः इति तस्य विषयः नास्ति किन्तु गोपालः किं करिष्यति इति विषयः अस्ति
हा हा सम्यक् सम्यक् विनीतः चिन्तयन् अस्ति
किन्तु
तत्र गोपालः तस्य प्रतीक्ष गोपालः करोति गोपालः विनीतस्य प्रतीक्षां करिष्यते
अथवा करिष्यते अथवा विनीतं प्रतीक्षिष्यते
विनीतं प्रतीक्षिष्यते आं महोदय क्षम्यतां तत्र
नरेश महोदय धन्यवादः
प्रतीक्षिष्यते एव समीचीनं गोपालः सागरतीरे विनीतं प्रतीक्षिष्यते प्रतीक्षिष्यते क्षम्यतां
समीचीनं भगिनि अस्तु अस्तु इदानीं तत्र अद्य तत्र वंशीसुधा भगिन्याः अपि तत्र उपस्थापनम् अस्ति अतः तत्र भगिनी तत्र इदानीं कर्तुम् इच्छति वा कर्तुं शक्नोति वा
आं महोदय तत् फैल् उद्घाटनं शक्नोति वा भवान्
उद्घाटनं कृतवान् भगिनी हा
कृतवान् वा अस्तु तर्हि सर्वेषां प्रेषयिष्यामि महोदय
अस्तु भगिनी अस्तु
एकनिमिषं महोदय
अस्तु तत्र
मधुमहोदय अपि अस्ति
महोदय अपि अस्ति हा सः अस्ति वा
अहं चिन्तयामि सः अस्ति
अस्तु अस्तु अस्तु
फैल् उद्घाटनं
हा तत्र लिङ्क् प्रेषितमस्ति सर्वे
उद्घाटनं कुर्वन्ति
हा कुर्वन्तु
किञ्चित् भिन्नरीत्या करोमि महोदय
अस्तु हा तत्र अहं पश्यामि तत्र चत्वारः जनाः सन्ति इदानीं
चत्वारः वा
निरञ्जनः सन्ति
ओ वेदा भगिनी अस्ति उषा भगिनी शोभा भगिनी नरेश महोदय मधुसूदन महोदय अपि अस्ति ललिता भगिनी अपि अस्ति न षड् जनाः सन्ति
हा हा अतः तत्र प्रायशः तत्र अस्तु
अस्तु अस्तु प्रथमं तु तत्र कथां पठामि महोदय तदनन्तरं तस्य व्याकरणस्य विषयं चिन्तयिष्यामः
अस्तु
अस्तु ॐ गुरुभ्यो नमः सर्वेभ्यः नमस्कारः अद्य मम क्रमः अस्ति अधुना तु येषां कथां पठामि तदनन्तरं तस्य तदनन्तरं तस्मिन् व्याकरणविषयाः के सन्ति तेषां चर्चां कुर्मः अस्तु उपकारी चोरः यदि उट्टङ्कनदोषाः सन्ति नो चेत् कुत्रापि दोषाः सन्ति तत्र अन्ते वदन्तु कृपया महोदय भवान् अपि वदन्तु महोदय
अहं न जानामि कुत्र अस्ति
तत्र
चाट् मध्ये प्रेषितं महोदय
चाट् मध्ये अस्ति
भवत्याः भवान् प्राप्तवान् वा महोदय चाट् मध्ये
चाट् मध्ये अस्ति
करिष्यामि वा आरम्भं करोमि वा महोदय अस्तु कस्मिंश्चित् नगरे कश्चन चोरः आसीत् सः चौर्ये निपुणः एकस्मिन् दिने चत्वारः पण्डिताः तद् नगरे आगताः तेषां सकाशे अधिकं वित्तम् आसीत् चोरेण वित्तं हर्तुं चिन्तितम् अतः तेन तेषां स्नेहः साधितः परन्तु पण्डितैः धनं सर्वं दत्त्वा बहुमूल्यानि रत्नानि क्रीतानि क्षम्यतां तत्र क्रीतानि न समीचीनमस्ति कोशे तान् स्थापयित्वा तैः प्रस्थितं चोरेण चिन्तितम् अहमपि एतैः सह गच्छामि मार्गमध्ये एतेषां वधं कृत्वा रत्नानि अपहरिष्यामि इति तेन चिन्तितम् अतः चोरेण पण्डितैः सह गन्तुं कथञ्चित् अनुमतिः प्राप्तः। अनन्तरं सर्वैः ततः प्रस्थितम्। मार्गमध्ये अरण्यम् आसीत्। तत्र किराताः वासं कुर्वन्ति सन्ति। किरातवास वसतौ कश्चन काकः आसीत्। सः विचित्रशक्तिमान् आसीत्। केषु पान्थेषु समीपे धनम् अस्ति सः जानाति, किरातान् सूचयति च। पान्थान् पण्डितान् दृष्ट्वा काकेन स्वभाषया किराताः सूचिताः। तदा पण्डितैः रत्नरक्षणार्थम् एकम् उपायं चिन्तितम्। तैः झटति रत्नानि गिलितानि। किरातैः काकस्य वचनं श्रुत्वा पण्डिताः बद्धाः। पण्डितानां वस्त्रान् निष्कास्य किरातैः सर्वत्र अन्विष्टम्, किन्तु धनं तैः कुत्रापि न प्राप्तम्। परन्तु किरातैः अयं विषयः न त्यक्तः। धनं क्व इति पृष्टम्। धनस्य विवरणे न दाते सति सर्वेषां वधं कृत्वा चर्मं विदार्य अन्वेषणं कुर्मः इति तैः उक्तम्। तस्मात् चोरेण किराताः उक्ताः, अस्माकं सविधे धनं नास्ति, तथापि संशयः वर्तते चेत् मम वधं कुर्वन्तु पश्यतु। किरातैः चोरस्य वधं कृतम्। शरीरे रत्नानि न लब्धानि। किराताः काकस्य वचनम् असत्त्वम् इति मत्वा क्षमां याचयित्वा पण्डितान् सगौरवेण ततः प्रेषितवन्तः। उपकारिणा चोरेण पण्डिताः रक्षिताः। कथा समाप्ता महोदय। अस्तु, अधुना किं कुर्मः इत्युक्ते तत्र पङ्क्तिशः पठामः, एकमेकम् आगत्य पङ्क्तिशः पठामः, तत्र के के व्याकरणविषयाः सन्ति तस्य चर्चां कुर्मः। समीचीनं वा महोदय, कुर्मः वा?
अस्तु भगिनि, कुर्मः।
अस्तु, प्रथमं वेदा भगिनी आगतवती, आगच्छति इष्टवती वा? श्रूयते वा भगिनी, वेदा भगिनी?
वेदा भगिनी अद्य केवलं शृणोमि इति उक्तवती।
शृणोमि, अस्तु, तर्हि उषा भगिनी प्रथमम् आगच्छतु। भगिनी, भगिनी प्रथमं वाक्यं पठतु, तस्मिन् के के व्याकरणविषयाः सन्ति तस्य चर्चां कुर्मः।
आम् आं भगिनी, श्रूयते किल?
हा, प्रथमं तु तत्र कथायाः शीर्षिका किम् अस्ति, तस्मिन् के के सन्देहाः सन्ति, के के पदानि सन्ति, तेषां विवरणं करोतु भगिनी परम्।
उपकारी चोरः इति अस्ति तत्र।
उपकारी कीदृशपदमस्ति?
उपकारिन् नकारान्तपदमस्ति।
समीचीनम्, उपकारिन् चोरः इति प्रथमविभक्तौ
अस्ति, प्रथमपुरुषे एकवचने।
समीचीनम्, अस्तु।
कस्मिंश्चित् नगरे कश्चन चोरः आसीत्, सः चौर्यै निपुणः। कस्मिंश्चित् इत्युक्ते कस्मिंश्चित् नगरे
इत्युक्ते
कस्मिन् सप्तमी विभक्त्याम् अस्ति, नगरे अपि सप्तमी विभक्ति। कश्चन कः, कश्चन चोरः, चोरः अस्य विशेषणं कश्चन अस्ति तत्र, लङ्लकारे अस्ति सः।
तत्र कस्मिंश्चित्, कस्मिंश्चित् अपि नगरे इत्यस्य विशेषणमस्ति, कस्मिंश्चित् नगरे, तत्र सप्तमी विभक्तौ अस्ति पदद्वयमपि, अतः ते तस्य विशेषणं भवति।
कश्चन चोरः आसीत्, लङ्लकारे अस्ति आसीत्, सः चौर्यै निपुणः। सः चोरः, चौर्ये इत्युक्ते चोरं कर्तुं निपुणः अस्ति वा भगिनि?
हा, निपुणः अस्ति, तत् सः तु नैपुण्यमस्ति, तस्मिन् नैपुण्यं
कीदृशपदं?
सप्तमी, सप्तमी विभक्ति भगिनि, चौर्ये इत्युक्ते सप्तमी, चौर्यः इत्युक्ते
चौर्ये, सः चौर्ये निपुणः, सः चोरः चौर्ये निपुणः अस्ति। अनन्तरं पठामि वा?
हा, वाक्यद्वयं पठतु, न चेत् कति जनाः सन्ति अद्य? अस्तु, एकं परिच्छेदं पठतु भगिनि, प्रथमं प्रति।
एकस्मिन् दिने चत्वारः पण्डिताः तद् नगरे आगताः।
एकनिमिषं भगिनि, यदि मम लेखने दोषाः सन्ति कृपया वदन्तु। अस्तु, अस्तु।
एकस्मिन् दिने, एकस्मिन् सप्तमी भक्ति अस्ति, दिने अपि सप्तमी, विशेषणं विशेष्यम् अस्ति। चत्वारः एकः न चत्वारः पण्डिताः प्रथमपुरुषे वदामि चेत् चत्वारः एकः पण्डितः न चत्वारः पण्डिताः
नित्यबहुवचनमस्ति भगिनि चत्वारः इति नित्यबहुवचनम्
नित्यबहुवचनं चत्वारः पण्डिताः तद् नगरे आगताः तद् नगरे इत्युक्ते कस्मिंश्चित् नगरे नगरस्य
तत्र मम आशयः किम् अस्ति इत्युक्ते वाक्यं कीदृशवाक्यमस्ति कर्तरिप्रयोगे अस्ति वा कर्मणिप्रयोगे अस्ति वा कस्य विशेषणं के पदानि विशेषणम् अस्ति न अपि च तत्र एकमेकं नीत्वा पदं कस्मिन् विभक्त्याम् अस्ति तदपि वदतु भगिनि
अस्तु एकस्मिन् सप्तमी विभक्ति अस्ति दिनं दिने दिनानि नपुंसकलिङ्गे अस्ति दिने सप्तमी विभक्ति एकवचने चत्वारः नित्यं बहुवचने पण्डितः पण्डितौ पण्डिताः अकारान्तपुंलिङ्गशब्दः पण्डितः पण्डितौ पण्डिताः बहुवचने अस्ति तद् नगरे नगरम् इति नपुंसकलिङ्गे अस्ति नगरं नगरे नगराणि अत्र तु नगरे सप्तमविभक्ति एकवचने अस्ति आगताः बहुवचने अस्ति आगतः आगतौ आगताः
हा तत्र कीदृश प्रयोगः अस्ति वदतु भगिनि
सा प्रत्यय अस्ति
हा समीचीनं कर्तरिप्रयोगे अस्ति वा कर्मणि प्रयोगे अस्ति वा
कर्तरिप्रयोगे अस्ति भगिनि
परन्तु तत्र कर्तरिप्रयोगे अस्ति तत्र प्रत्यय कथं भवति
परन्तु अत्र कर्मणि प्रयोगे अस्ति अस्ति चेत् तृतीयविभक्ति
हा परन्तु तत्र अहं गताः इति तन्तप्रत्यय उपयुज्य लिखितवती तत्र किमर्थं लिखितवती अन्ये कोऽपि जानन्ति चेत् कृपया वदन्तु तत्र वदामि एकस्मिन् दिने तत्र दिनस्य विशेषणमस्ति एकस्मिन् चत्वारः पण्डिताः इति चत्वारः इति पण्डिताः विशेषणमस्ति अतः बहुवचनशब्दः अस्ति नगरम् इति नपुंसकलिङ्गमस्ति तद् नगरे इत्युक्ते तस्यापि विशेषणं तत्र तु सर्वनामशब्दः अस्ति आगताः इति गति तत्र तु गत्यर्थकः धातुः अस्ति गतः इति गत्यर्थकः धातुः अस्ति अतः तस्य प्रयोगः कर्मणि कर्तरिप्रयोगे अपि भवितुम् अर्हति कर्मणि प्रयोगे अपि भवितुम् अर्हति अपि च तत्र तस्य प्रयोगे कर्तरिप्रयोगे अपि भवितुम् अर्हति अतः गत्यर्थकधातुः केचन धातूनां गत्यर्थकधातुः इति समूहः अस्ति तेषां तत्र तेषां प्रयोगः कर्तरिप्रयोगे अपि भवितुम् अर्हति अपि च कर्मणि प्रयोगे अपि भवितुम् अर्हति अतः तत्र पण्डिताः आगताः इति कर्ता इति पण्डिताः इति कर्ता अस्ति तस्य प्रयोगे आगताः इति क्रियापदमस्ति अतः गत्यर्थकधातु यत्र यत्र अस्ति तेषां प्रयोगे कर्तरिप्रयोगे अपि भवितुम् अर्हति कर्मणि प्रयोगे अपि भवितुम् अर्हति भगिनि समूहः अस्ति तत्र धातूनां तत्र केचन धातवः सन्ति समीचीनं वा महोदय सम्यक् उक्तवती वा नो चेत् यदि दोषाः सन्ति तु वदन्तु वा महोदय
समीचीनं भगिनि समीचीनं एतावत् समीचीनं
हा तत्र वदामि तत्र प्रेषयिष्यामि तत्र कथानन्तरं तत्र गत्यर्थः धातु के सन्ति तत्र तेषां विवरणं प्रेषयिष्यामि अस्तु
अस्तु
अस्तु अग्रे गच्छतु भगिनि
तेषां सकाशे अधिकं वित्तमासीत् तेषां सकाशे अधिकं वित्तमासीत् तेषाम् इत्युक्ते पण्डिताः पण्डितानां सकाशे इत्युक्ते किं
तस्य तेषां समीपे
अधिकं वित्तमासीत् वित्तम् इत्युक्ते धनं तेषां तस्य तयोः तेषां षष्टिविभक्ति बहुवचने अस्ति सकाशे इति कीदृशपदं भगिनि
सकाशे इति अव्ययपदमस्ति तत्र तत्र वाक्यं तु कर्तृप्रयोगे अस्ति अधिकं वित्तम् आसीत् तत्र सामान्यवाक्यमस्ति
वित्तमासीत् वित्तम् आसीत् तत्र सन्धि अस्ति वा वित्तम्
वित्तम् आसीत् इति सन्धि नास्ति वर्णमेलनम् अस्ति भगिनि
अस्तु
वित्तम् आसीत् इति अर्थं वर्णमेलनं कृतवती
अस्तु अनन्तरं चोरेण वित्तं धर्तुं
हर्तुं हर्तुं हर्तुं
चिन्तितं
चोरेण तत्र कीदृशप्रयोगः अस्ति तत्र
एकनिमिषं चोरेण वित्तं हर्तुं चिन्तितं चोरेण तृतीयविभक्त्याम् अस्ति वित्तं तत्र कर्मपदम् अस्ति इति मन्ये हर्तुं तुमुन् प्रत्यय चिन्तितं चिन्तितः चिन्तिता चिन्तितम्
चिन्तितम् इति तान्तप्रयोगः अस्ति तत्र हा तत्र वाक्यं तु कर्मणि प्रयोगे अस्ति चोरेण चिन्तितं तत्र चोरेण कर्मपदं यद्यपि कर्मपदम् अस्ति वित्तम् इति कर्मपदम् अस्ति तत्र हर्तुं सः तेन अन्वयः भवति अतः तत्र यद्यपि तत्र वित्तम् इति नपुंसकलिङ्गे अस्ति परन्तु चिन्तितम् इति भावे प्रयोगे अस्ति अतः चोरेण चिन्तितं वित्तं तु हर्तुं सः अन्वयः भवति
चोरेण वित्तं हर्तुं चिन्तितम् अतः तेन तेषां सन्देहः
स्नेहः
सम्यक्
बृहत् करोमि वा
कृतवती भवती अतः तेन तेषां स्नेहः साधितः अतः तेन तेन इत्युक्ते केन केन सह
पण्डेन चोरः चोरः
तेषां स्नेहः इत्युक्ते पण्डितानां स्नेहः साधितुं साधितः तप्रत्ययः अस्ति कर्मणि प्रयोगे अस्ति
कर्मणि प्रयोगे भगिनि अहं किञ्चित् कथां परिवर्तनं कृत्वा कर्मणि प्रयोगे लिखितवती यतोहि अभ्यासः अपि भवति अतः
अस्तु अस्तु भगिनि सम्यक्
तत्र तु कर्तरिप्रयोगे अस्ति कथा तु कर्तरिप्रयोगे अस्ति अहं तु कर्मणि प्रयोगे लिखितवती यतोहि मम दोषाः अपि सन्ति चेत् तत्र महोदय वक्तुं शक्यते किल अस्तु
अतः तेन तेन इत्युक्ते
चोरेण
चोरेण पण्डितानां स्नेहः साधितः
तत्र साधितः किमर्थं लिखितवती साधितम् इति किमर्थं न लिखितवती
स्नेहः साधितः विशेषणं विशेषम् अस्ति इति मन्ये भगिनि
न विशेषं नास्ति तत्र कर्मणि प्रयोगेते कर्मस्य अन्वयः भवति स्नेहः इति पुल्लिङ्गशब्दः अतः साधितः तेन सह अन्वयः भवति अतः पुल्लिङ्गशब्दः भवति तेन इति तत्र चोरेण अन्वयः इत्युक्ते तत्र यदि कर्तरिप्रयोगे अस्ति तत्र तु यदि रामः मन्दिरं गच्छति इति वदामि तत्र रामस्य अन्वयः गच्छति तेन सह भवति नो चेत् रामाः मन्दिरं गच्छन्ति इति वदामि तत्र क्रियापदं सर्वदा कर्तु अनुसरति परन्तु कर्मणि प्रयोगे यदा लिखामः तत्र कर्मस्य अनुसरणं भवति अतः स्नेहः इति यदि स्नेहाः लिखामः तर्हि तत्र साधिताः भवति अस्तु तत्र
तत्र कर्मपदम् अस्ति अतः साधिता उपयोगं कृतवती
अपि च तत्र कर्मणि प्रयोगे सर्वदा कर्मणः प्रथमाविभक्तौ एव अस्ति तत्र द्वितीयाविभक्तिः न भवति कर्मणः प्रथमाविभक्तौ एव प्रयोक्तव्यम् अपि च कर्ता तृतीयविभक्तौ अस्ति 3-1-1 इति तस्य प्रयोगः अस्ति
त्रीणि एकम् एकं तेन तृतीयाविभक्त्याम् अस्ति स्नेहः प्रथमाविभक्ति कर्तृपदम् अस्ति साधितः तस्य
अन्वयः कर्म सह अन्वयः भवति
अन्वयः भवति
परन्तु
पठामि वा
हा पठतु परिच्छेदं सम्पूर्णं
तु पण्डितैः धनं सर्वं दत्त्वा बहुमूल्यानि रत्नानि क्रीतानि परन्तु पण्डितैः तत्र अपि कर्मणि प्रयोगं कृतवती भगिनी पण्डितैः धनं सर्वं दत्त्वा बहुमूल्यानि रत्नानि क्रीतानि
तत्र कर्तृपदं किम् अस्ति कर्मपदं किम् अस्ति वदतु
पण्डितैः तृतीयविभक्ति बहुवचने अस्ति पण्डितेन पण्डिताभ्यां पण्डितैः धनं सर्वं दत्त्वा स्वप्रत्वा प्रत्यय रत्नानि क्रीतानि क्रियापदं बहुमूल्यानि रत्नानि रत्नानि विशेष्यं बहुमूल्यानि विशेषणं धनं धनं क्रिया क्रियाप ऐ मीन् कर्तृपदम्
कर्मपदमस्ति वदति वा तत्र हा तत्र पश्यतु भगिनि तत्र कर्म क्रियाद्वयमस्ति दत्त्वा अपि क्रिया इव प्रयोक्तव्यं शक्यते क्रीतानि तु तत् सामान्यक्रियापदमस्ति अतः तत्र यदा त्वान्तप्रयोगः नो चेत् तुमुन्प्रयोगः भवति कर्मणि प्रयोगे तत्र धनं सर्वम् इति द्वितीया विभक्तौ अस्ति धनं सर्वा दत्त्वा इति तेन सह अन्वयः भवति अपि च तत्र रत्नानि इति अन्यः कर्मपदमस्ति बहुमूल्यानि रत्नानि क्रीतानि अतः अस्मिन् वाक्ये रत्नानि इति कर्मपदमस्ति क्रीतानि सह अन्वयः भवति यतोहि तत्र दत्त्वा तेन सह धनं सर्वमिति तेन सह अन्वयः अभवत् अस्तु
अस्तु इत्युक्ते धनं सर्वं दत्त्वा एकं क्रियापदं
तत्र दत्त्वा इति क्रिया इव प्रयोक्तुं शक्यते अतः तत्र तेन सह अन्वय दत्त्वा इति यदा त्वान्तप्रयोगं यदि कुर्मः तेन सह सर्वदा द्वितीयविभक्तेव आवश्यकं किल अस्तु धनं दत्त्वा नो चेत् पुस्तकं दत्त्वा गच्छामि तत्र द्वितीया विभक्ति एव भवति अतः धनं सर्वं दत्त्वा बहुमूल्यानि रत्नानि बहुमूल्यानि इति विशेषणमस्ति रत्नानि इत्यस्य अपि च क्रीतानि क्रीणः क्रीतानि इति क्रियापदमस्ति अतः बहुमूल्यानि रत्नानि क्रीतानि इति तेन सह अन्वयः भवति अपि च कर्ता पण्डितैः पण्डितः इत्यस्य द्वितीयविभक्ति बहुवचनरूपमस्ति पण्डितैः अस्तु
पण्डितैः धनं सर्वं दत्त्वा बहुमूल्यानि रत्नानि क्रीतानि भवन्ति तत्र एकं धनं सर्वं धनं दत्त्वा अपि च बहुमूल्यानि रत्नानि क्रीतानि
समीचीनं समीचीनम् अग्रिमवाक्यमपि तत्
कोशे कोशे तान् स्थापयित्वा तैः प्रस्थितम्
अधुना वदतु अधुनापि एषा प्रयोग अयं प्रयोगः एव भवति तत्र वदतु कीदृशप्रयोगः अस्ति
तत्र अपि कर्मणि प्रयोगे अस्ति तैः कोशे तान् तान् इत्युक्ते बहुमूल्यानि रत्नानि
समीचीनं
ये क्रीतवन्तः बहुमूल्यानि रत्नानि क्रीतवन्तः पण्डितैः ते रत्नानि कोशे स्थापयित्वा त्वा प्रत्यय तत्रापि तैः प्रस्थितं तैः इत्युक्ते पण्डिताः
पण्डितैः
चत्वारः पण्डिताः पण्डितैः
अत्र पश्यतु तत्र त्वान्तप्रयोगः अस्ति स्थापयित्वा अतः तत्र तस्य अन्वयः तान् इति सः भवति तान् इत्युक्ते द्वितीया विभक्तिः अस्ति तत्र तु न क्षम्यतां रत्नानि इति अस्ति न तानि भवति तानि भवति क्षम्यतां तानि स्थापयित्वा क्षम्यतां तानि स्थापयित्वा क्षम्यतां तानि स्थापयित्वा इत्युक्ते तेन सह अन्वय स्थापयित्वापि क्रियापदमेव भवति अतः तानि स्थापयित्वा तैः प्रस्थितं तत्र कर्मपदं किमपि नास्ति तैः इति कर्ता अस्ति अतः तत्र कर्मपदं किमपि नास्ति अतः सर्वदा नपुंसकलिङ्गे एव भवति प्रस्थितम् इति नपुंसकलिङ्गे अस्ति अतः तैः प्रस्थितम् इति भवति
प्रस्थिताः इति न भवति वा तत्र प्रस्थितं
तत्र कर्मपदं कः किम् अस्ति अधुना वदतु भगिनि कर्मपदं तु तानि स्थापयित्वा तेन सह अन्वयः अभवत् अस्तु तत्र कर्मपदं किमपि नास्ति अतः भावे प्रयोगे तु वक्तुं शक्नुमः अतः तैः प्रस्थितम् एव भवति प्रस्थिताः नो चेत् प्रस्थितौ किमपि न भवति प्रस्थितम् इति नपुंसकलिङ्गे अस्ति अतः तैः प्रस्थितम् इति भवति
प्र उपसर्गपूर्वकं
सा धातु तु प्रत्ययः नपुंसकलिङ्गे
नपुंसकलिङ्गे
समीचीनं वा भगिनि
भगिनि
धन्यवादः भगिनि धन्यवादः अधुना अशोभा भगिनी वक्तुं शक्यते वा शोभा
भगिनि
द्वितीयपरिच्छेद करोतु भगिनि महोदय समीचीनं वा एतादृशकर्मः वा
समीचीनमेव अस्ति भगिनि, चिन्ता मास्तु, समीचीनमेव.
चर्चां कुर्मः चेत् तत्र मम दोषाः यदि सन्ति अपि तस्य
समीचीनमेव. उत्तमं.
शोभा भगिनी वदतु भगिनि.
चोरेण चिन्तितम्, अहमपि एतैः सह गच्छामि. तत्र प्रश्नः भगिनी, तत्र यदि यतोहि कोटेशन् मध्ये अस्ति इति शब्दस्य प्रयोगं न आवश्यकं वा?
कर्तुं शक्यते इति न अहं चिन्तयामि. तत् इति विषये अहं इति वदामि इति ऐ मीन् न किं महोदय तत्र वक्तुम् आवश्यकं वा इति शब्दं न जानामि तत् सम्यक्.
कुत्र भगिनि?
तत्र द्वितीयपरिच्छेदे शुभभगिन्याः प्रश्नः अस्ति महोदय. चोरेण चिन्तितम्, अहमपि एतैः सह गच्छामि इति वदामि वा, नो चेत् न वदामि चेत् अपि सम्यक् वा?
हा, तत्र कोटेशन् मार्क्स् अस्ति, अतः तत्र इति तस्य आवश्यकता नास्ति.
नास्ति वा? अतः न जानामि तत्र नास्ति वा. अस्तु
तर्हि महोदय, कोटेशन् नास्ति चेत् क्षम्यताम्, इति इत्यस्य प्रयोगम् अस्ति चेत् कोटेशन् न आवश्यकं वा?
इति न भगिनि, किन्तु तत्र इति तत्र द्वितीयवाक्ये इति अस्ति खलु.
आम्,
कोटेशन् मार्क् अपि अस्ति, इति अपि अस्ति, अतः तत्र इति स्थापयितुं शक्नुमः.
कर्तुं शक्नुमः, तद् नास्ति अपि किञ्चित् अपि तत्र दोषः नास्ति वा?
दोषः दोषः नास्ति इति मन्ये. हा, किन्तु किन्तु इदानीं न
स्मरामि.
परन्तु संस्कृत्यां कदापि कोटेशन् न दृष्टवान्.
किन्तु गीतासोपने अस्ति महोदय.
अस्ति महोदय,
कोटेशन्
यदि तत्र
अद्यतनपाठे अपि तत्र विनीतः चिन्तितवान्, तत्र पश्यतु, तत्र कोटेशन् अस्ति न वा? शिवः रविवासरः इति सः विनीतः, श्वः अहं किं करिष्यामि इति चिन्तयन्, अतः तत्र इति भवेत् भगिनि.
हा, लिखितं, मया लिखितं, परन्तु
समीचीनम्.
समीचीनं, धन्यवादः.
वाक्षिसुधा भगिनी, प्रश्नः तत्र.
हा, वदतु भगिनि.
अहमपि एतैः सह गच्छामि इति चोरेण चिन्तितम् अपि भवितुमर्हति किल?
पुनः वदतु भगिनि, क्षम्यताम्.
अहमपि चोरेण चिन्तितम् इति प्रथमं वाक्यम् अस्ति किल,
तत्र
एतैः सह गच्छामि इति चोरेण चिन्तितम्.
हा, चोरेण चिन्तितं तत्र प्रथमं
अन्ते अपि स्थापयितुं शक्नुमः. तत्र वाक्यस्य अधोभागे तत्र चोरेण चिन्तितम् इति भवती लिखितवती, किन्तु तत् अन्ते अपि भवितुमर्हति. तत्र आरम्भे किं भवति, अहमपि एतैः सह गच्छामि इति चोरेण चिन्तितम्.
तदेव मम प्रश्नः.
तत् कर्तुं शक्नुमः.
कुत्रापि स्थापितुं शक्यते न महोदय? तत्र
तत्र इति अनन्तरं केन चिन्तितम् एतत्? चोरेण चिन्तितम् इति.
अस्तु अस्तु, अस्तु अस्तु, तर्हि अतः एव लिखामि. अस्तु, पठतु भगिनि.
तत्र मार्ग इति मार्ग इति अस्ति भगिनि.
ओ, क्षम्यता, क्षम्यतां भगिनि.
न न, चिन्ता नास्ति. मार्गमध्ये एतेषां वधं कृत्वा रत्नानि अपहरिष्यामि इति तेन चिन्तितम्. तर्हि मार्गमध्ये अस्तु, तत्र प्रथमवाक्ये अहम् अपि इति अव्ययपदम्, एतैः सह गच्छामि इति, एतैः इति तृतीयविभक्तौ बहुवचने, सह गच्छामि, सः इति अव्ययम् इति मन्ये, इति चोरेण चिन्तितं. तत्र चोरेण चिन्तितम्, अतः तृतीय किं भवति, तत्र चोरेण चिन्तितम् इति तृतीय विभक्तिवाक्यं.
तत्र सः प्रयोगे यद्यपि सः अस्ति, तत्र तेन सः इत्युक्ते तत्र तृतीया एव आवश्यकं. तत्र सः प्रयोगे तृतीया इति सूत्रमस्ति, तेन सः इत्युक्ते तत्र तृतीया भवति.
तत्र चोरेण चिन्तितम् इत्यस्य वाक्ये अन्यत् किमपि नास्ति,
तृतीया अपि चिन्तितम् इति पदम् एव मार्गमध्ये एतेषां वधं कृत्वा रत्नानि अपहरिष्यामि यथा भवती उक्तवती तत्र कृत्वा त्वान्तपदम् अस्ति चेत् तत्र क्रियापदम् इव भवति अपि कर्मपदं स्वीकरोति अतः तत्र एतेषाम् इति षष्ठीविभक्ति वधम् इति कृत्वा इत्यस्य कृते कर्मपदं भवति रत्नानि अपहरिष्य
मम प्रश्नः अस्ति तत्र कर्ता कः तत्र
तत्र मार्गमध्ये एतेषां वधं कृत्वा तत्र कर्ता तु चोरः एव भवति न न मार्ग तत्र
चोरः एव भवति तत्र अध्याहर्तव्यं तत्र स्पष्टतया न तत्र तेन चिन्तितम् इति लिखितं किल तत्र अन्ते
इति तेन चिन्तितं तेन इति चोरः तत् तृतीयविभक्तौ भवति चोरः एव इम्प्लिसिट् चोरः एव रत्नानि अपहरिष्यामि तत्र अपहरिष्यामि इति क्रियापदं रत्नानि तत्र द्वितीयविभक्तौ कर्मपदं भवति
समीचीनं रत्नानि अपहरिष्यामि तत्र कर्तृप्रयोगे अस्ति अपहरिष्यामि इति तु तत्र सामान्य
सकर्मक अस्ति तत्र
समीचीनं
लृट् लकारस्य प्रयोगः तदपि दत्तवती भवती अद्यस्य पाठस्य विषयः अपि अतः चोरेण पण्डितैः सह गन्तुं कथञ्चित् अनुमतिः प्राप्तः अस्तु तत्र कर्मणि प्रयोगः अतः चोरेण पण्डितैः सह गन्तुं गन्तुमिति तुमुन् प्रत्ययः कथञ्चित् अनुमतिः प्राप्तः तत्र केन प्राप्तः इत्युक्ते चोरेण प्राप्तः इति भवति अन्वयः चोरेण प्राप्तः इति कैः इत्युक्ते पण्डितैः अनुमतिः अनुमतिः पण्डितैः प्राप्तः किमर्थं चेत् तैः सह गन्तुं
पण्डितैः तत्र महोदय मम एकः प्रश्नः अस्ति तत्र पण्डितैः सह इति सः तेन सह अन्वयः भवति गन्तुम् इत्यस्य अकर्मकः धातुः अस्ति तत्र अतः कर्म न अपेक्षितं वा तत्र समीचीनं वा
गन्तुम् इति सकर्मकः इति भवति खलु भगिनि
तर्हि तत्र चोरेण गन्तुम् अनुमतिः प्राप्तः तत्र गन्तुम् इत्यस्य कर्मपदं किमपि नास्ति तत्र समीचीनं वा महोदय
तत् समीचीनमेव
अस्तु
तत्र एकवारं पश्यामः तत्र
गम् दातु सकर्मकः अस्ति परन्तु तत्र सर्वदा तस्य
भवेत् इति नास्ति खलु
नास्ति न अस्तु अस्तु पठतु
सः गन्तुं कथञ्चित् तत्र चित् इति प्रयोगः कथम् इति कथञ्चित् तत्र किं विभक्ति किं भवति तत्र कथञ्चित् इत्युक्ते कथम् इति सप्तककारानाम् अतः तेन सह चित् प्रत्ययस्य योजनेन कथञ्चित् तत्र सन्धिकार्यं भूत्वा कथञ्चित् इति भवति मकारस्य सवर्गीय अनुनासिकवर्णः आगच्छति अनुमतिः प्राप्तः चोरेण प्राप्तः तत्र
तत्र कर्मपदमस्ति अनुमतिः इति तत्र अनुमतिः प्राप्तः क्षम्यतां तत्र समीचीनं वा तत्र ममापि संशयः अधुना अभवत्
त्रिलिङ्ग अनुमतिम् अस्ति इति वा
अनुमतिः
अनुमतिः स्त्रीलिङ्गपदम् अस्ति इति मन्ये भगिनि
अनुमतिः इति स्त्रीलिङ्गशब्दः अस्ति अतः प्राप्ता भवति न प्राप्ता
भवतिः स्त्रीलिङ्गे अस्ति
समीचीनं तत्र तदेव मम
अनुमतिः प्राप्ता
प्राप्ता इति भवति अस्तु प्राप्ता समीचीनम्
अनुमतिः प्राप्ता अनन्तरं
भगिनि तत्र अनुमतिः तत्र स्त्रीलिङ्गे अपि अस्ति पुल्लिङ्गे अपि अस्ति
एवं वा अस्तु अस्तु समीचीनं तर्हि
अनुयोजनेन वा महोदय मतिः इति स्त्रीलिङ्गे अस्ति अनु इति उपसर्गयोजनेन रूपद्वयं भवति वा
इति मन्ये भगिनि तत्र अहं केवलं तत्र स्पोकन् संस्कृत् मध्ये दृष्टवान् तत्र अनुमतिः तत्र
स्त्रीलिङ्गे
अपि अस्ति
अस्तु द्वयोः पदयोः प्रसक्ति भवति अस्तु
अनन्तरं सर्वैः ततः प्रस्थितम् तत्र अनन्तरम् अनन्तरम् इत्यस्य तत्र नै समासः अनन्तरम् इति
अनन्तर अव्ययमपि अस्ति न अनन्तरम्
अस्ति वा
अनन्तरम् अव्ययमपि
अनन्तरम् इति अपि अस्ति अव्ययं वा तत्र इत्यस्य विरुद्धार्थे अपि भवति तत्र
किमस्ति भगिनि न जानामि तत्
अन्तरम् इत्यस्य नै तत्पुरुष अनन्तरं न अन्तरं
नान्तरं
पुनः अनन्तरम् अन्तरम् अस्ति इति तत्र
एवं वा न जानामि अस्तु तत्र पश्यामः
किन्तु अत्र अनन्तरम् इति तत्र अव्ययमेव
तत्र तु अव्ययमेव लिखितं मम विवक्षा तु अव्ययशब्दः एव अस्ति
अव्ययशब्दः किन्तु अर्थं तादृशं भवितुम् अर्हति वा महोदय
किं भगिनि
एतस्य पदस्य अर्थः तत्र अन्तरम् अस्ति इति भवितुम् अर्हति वा इति मम
प्रश्नः अनन्तरम् अन्तरं नास्ति इति खलु
तत्र अन्तरम्
अन्तरम् अस्ति इति चिन्तयति
अन्तरम् इत्यस्य अनन्तरं भवति अनन्तरम् इत्यस्य पुनः अनन्तरम् इति भवति तत्र व्यवधानम् अस्ति किञ्चित् इति अस्तु अस्तु धन्यवादः महोदय अनन्तरं सर्वैः ततः प्रस्थितम् सर्वैः प्रस्थितम् इति अतः तत्र सर्वैः प्रस्थितम् अस्तु
कर्मणि प्रयोगे सर्वैः प्रस्थितं
तत्र
कर्मपदं नास्ति अतः नपुंसकलिङ्गे अस्ति प्रस्थितम् इति भवति
अस्तु तत्र भगिनी सर्वैः यदि नगरम् इति वदामः चेत् सर्वैः ततः नगरं
प्रस्थितं नगरमिति नपुंसकलिङ्गम् यदि पुल्लिङ्गशब्दः अस्ति सर्वैः किमपि अस्ति पुल्लिङ्गशब्दः अस्ति तत् प्रस्थितः इति भवति अस्तु भगिनि धन्यवादः भगिनि
धन्यवादः
भगिनि अधुना नरेश महोदय वक्तुं शक्यते वा कर्तुं शक्यते वा
आं भगिनि
हा तृतीयपरिच्छेदः कुर्मः
मार्गमध्ये अरण्यम् आसीत् तत्तु अहं चिन्तयामि कर्तरीप्रयोग अस्ति मार्गमध्ये सप्तमी अस्ति अरण्यम् आसीत् कर्तरीप्रयोगः अस्ति तत्र किराताः वासं कुर्वन्ति सन्ति अत्र शत्रन्तरूपम् अस्ति कुर्वन्ति
कुर्वन्तः सन्ति इति भवति न समीचीनं
कुर्वन्तः सन्ति
समीचीनं धन्यवादः महोदय
अत्र तदपि कर्तृप्रयोगः अस्ति तत्र तु अव्ययम् अस्ति किराताः कर्तुः बहुवचनं वासं कुर्वन्तः सन्ति किरातवसतौ कश्चन काकः आसीत् अत्र किरातवसतौ सप्तमी विभक्तिः अस्ति समये अस्ति कश्चन एकः काकः आसीत्
तदपि कर्तृप्रयोगे काकः आसीत् सामान्यवाक्यं
सामान्यवाक्यम् अस्ति सः विचित्रशक्तिमान् आसीत् अत्र शक्तिमान् शतान्तरम् अस्ति अत्र किमस्ति शानच्
न शानच् नास्ति महोदय तत्र शक्तिमान् शक्तिवान् शक्तिमान् तत्र तु झटिति विस्मृतवती तत् तृतीयस्य कोऽपि जानाति तु वदन्तु शक्तिमान् बुद्धिमान् महोदय कीदृशप्रत्ययः महोदय क्षम्यताम् अधुना मतुक् प्रत्ययः अस्ति तत् तस्मिन् यः शक्तिः अस्ति स शक्तिमान् इति भवति
भगिनी एकः प्रश्नः विचित्रशक्तिमान् किमर्थं विचित्र इति तत्र लेखनीयम् शक्तिमान् इति
शक्तिमान् इत्युक्ते तत्र शक्तिः अस्ति परन्तु विचित्रशक्तिः अस्ति न तस्मिन् यत् काके विचित्रशक्तिः अस्ति सः जानाति तत्र कोऽपि पन्ताः गच्छन्ति तत्र सः जानाति कस्य समीपे धनः सन्ति अतः तत्र विचित्रशक्तिः अस्ति अतः काकस्य विचित्रशक्तिमान् इति उक्तवती तत्र
चतुरः शक्तिमान् चतुरः अपि
चतुरः तु सामान्य चातुर्यमस्ति न लोके परन्तु एतत् विचित्रमस्ति कथं जानीमः तत्र कस्य पार्श्वे धन्
क्षम्यतां विशेषतया शक्तिमान्
विशेषतया
विशेषतया
विचित्रमस्ति न तत्र कोऽपि न
विशिष्टा शक्तिः नाम अथवा तत्र असामान्यशक्तिः
अस्तु भगिनि धन्यवादः
अस्तु अस्तु
तदपि कर्तृप्रयोगः अस्ति सः विचित्रशक्तिमान् आसीत् केषु पान्थेषु धनम् अस्ति सः जानाति किरातान् सूचयति च अत्रापि कर्तृप्रयोगः अस्ति केषु सप्तमी विभक्ति बहुवचनं केषु पान्थेषु विशेषणं विशेष्यम् अस्ति समीपे सप्तमी विभक्ति धनम् अस्ति सः जानाति काकः जानाति सः किरातान् किरातान् द्वितीयविभक्ति बहुवचनं किरातान् सूचयति च
सूचयति इति क्रियापदमस्ति तत्र क्रियाद्वयमस्ति जानाति अपि अस्ति सूचयति अतः च इत्यस्य प्रयोगं कृतवती किरातान् सूचयति अपि च सः जानाति इति सः तु पूर्वपदस्य अन्वयः भवति किरातान् सूचयति इति द्वितीयपदस्य वाक्यस्य अन्वयः भवति अस्तु
पान्थान् पण्डितान् दृष्ट्वा काकेन स्वभाषया किराताः सूचिताः अत्र कर्मणि प्रयोगः अस्ति प्रथमा तु दृष्ट्वा तदपि क्रियापदम् एव अस्ति पाथान् पान्थान् पण्डितान् दृष्ट्वा अग्रे काकेन किराताः सूचिताः किराताः प्रथमविभक्ति बहुवचनं क्रियापदं सूचिताः स्वभाष्या तृतीयविभक्ति अस्ति
चतुर्थविभक्ति स्वभाषया 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 किराताः सूचिताः तृतीया काकेन स्वभाषया किराताः इति कर्मपदमस्ति किराताः सूचिताः इति सूचिताः इति क्रियापदमस्ति अतः किराताः बहुवचनशब्दः अस्ति अतः सूचिताः अपि बहुवचनरूपमेव प्राप्नोति
एतत्तु कर्मणि प्रयोगः अस्ति
आं महोदय, बहु धन्यवादः महोदय, धन्यवादः निरञ्जन महोदय. अग्रे कुर्मः वा नो चेत् अग्रिमकक्षायां कुर्मः वा?
अग्रिमवर्गे कुर्मः भगिनि, समीचीनम्.
अदे अस्तु अस्तु, अग्रिमवर्गे कुर्मः, यतोहि तत्र किञ्चित् किञ्चित् पठनमपि भवति, मम अपि केऽपि दोषाः सन्ति अहं ज्ञातुं शक् अस्तु. एतादृशं समीचीनं वा? न जानामि अहं कृतवती.
छात्र छात्राणां तत्र इच्छा कथम् अस्ति
बहु सम्यक् अस्ति.
अस्तु तर्हि तत्र समयः अपि जातः तत्र. अस्तु प्रिया भगिनी नमस्कारः, गीताञ्जलि भगिनी नमस्कारः. अस्तु तत्र वेदा भगिनी वक्तुं शक्नोति वा? तस्य केवलं शृणोति. अस्तु अस्तु तर्हि तत्र शोभा भगिनी तत्र अन्ते तत्र वदति वा भगिनि?
क्षम्यतां
महोदय, चिन्ता मास्तु भगिनि. गीताञ्जलि भगिनी नमस्कारः. अस्तु,
ॐ सर्वे भवन्तु सुखिनः, सर्वे भवन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिश्शान्तिश्शान्तिः. हरि ओं श्रीगुरुभ्यो नमः. हरि ओम्. धन्यवादः महोदय, नमस्कारः.
धन्यवादः
महोदय.
अद्य अद्य